नमस्ते नमस्ते पुरुषं चाद्यं ईश्वरं प्रकृते परम् अलक्ष्या सर्वभूतानां अन्तर्बहिरवस्थितम् माया जवनिकाच्छन्या मज्ञाधो खजमद्वयम् न लप्स्यते मूलधृष्या नटो नाट्यधर्मयथा तथा परमहंसानां मुनीनां अमलात्मनां तथा परमहंसानां मुनीनां अमलात्मनां भक्तियोगविधानार्थं कथं पश्येम स्त्रियं नमस्ते पुरुषं चाद्यं ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानां अन्तर्बहिरवस्थितम् कृष्णाय वासुदेवाय देवकी नन्दनाय च कृष्णाय वासुदेवाय देवकी नन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः नमः पंकजनाभाय नमः पंकजमालिने नमः पंकजनेत्राय नमस्ते पंकजांघ्रये नमस्ते पुरुषं चाद्यं ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानां अन्तर्बहिरवस्थितम् यथा ऋषिकेशं खलेन देवकीं कंसेनरुध्याति चिरं सुचार्चिताम् विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहो विपद्गणाम् ईशानमहाग्ने पुरुषाददर्शन विशानमहाग्ने पुरुषाददर्शनाम् असत्सभाया वनवास प्रेक्षतम् निधेनेकमहारथास्ततो निधेनेकमहारथास्त्रतुम् मृधे मृधेनेकमहारथास्त्रतुम् द्रौणस्त्रतोश्चात्म हरेभि रक्षिता मृधे मृधेनेकमहारथास्त्रतुम् जौनस्ततोष्टात्म हरेभिरक्षिताम् नमस्ते पुरुषस्ताद्यम् ईश्वरं प्रकृते परम् अलक्षं सर्वभूतानां अन्तर्बहिरवस्थितम् विपदाः सन्तु तासश्च तत्र तत्र जगद्गुरु भवतद्दर्शनज्ञस्यात् आपुनार्भवदर्शन जन्मैसज्जसुतस्त्रीभिः रेधमानमदा पुमान् नैवार्हता भीभातुं वै कामकिञ्चन गोचरम् नमस्ते पुरुषाद्यं ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्ताद्बहिर्नमस्कृतम् नमो किञ्चन विष्टाय निर्वृत्त्या गुणवित्तये आत्मरामाय शान्ताय कैवल्यपतये नमः नमस्ते पुरुषाद्यम् ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम् मन्येतां कालनिशानम् अनादिधनं विभुम् समं चरन्तं सर्वत्र भूतानां जन्मितः कलिः न भेद कश्चिद्भगवं चिकीर्षितम् न भेद कश्चिद्भगवं चिकीर्षितम् तवेहमानस्य नृणां विडम्बनम् कवेहमानस्य नृणां विडम्बनम् न यश्च कश्चित् दयितोऽस्ति कर्हिषि दृश्यश्च जस्मिन् विषमामतीर्णाम् जन्म कर्म च विश्वात्मन् जन्म कर्म च विश्वात्मन् न यश्च कर्तुरात्मनः शिशुर्जादसु तदत्तन्त विडम्बनम् जन्म कर्म च विश्वात्मन् न यस्याकर्तुरात्मनः ईजं शिशुजादसु तदन्तन्त विडम्बनम् नमस्ते पुरुषाद्यं ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम् नमस्ते पुरुषाद्यं ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम् गोप्याददेतै कृतदासिदाम तावन् जाते दशाश्रुकनिलान् जनसम्भ्रमाक्ष्यम् गोप्याददेतै कृतगा भयभावनयास्थितस्य कामाविमोहयति रतिचर्विभेति वक्त्रं नीयभावनया स्थितश्च सामां विमोहति रतिजद्विधेति। नमस्ते पुरुषात्याज्ञम् ईश्वरम् प्रकृते परम् अलक्ष्यम् सर्वभूतानाम् अन्तर्बहिरवस्थितम्। नमस्ते पुरुषम् ताद्यम् नमस्ते पुरुषात्याज्ञम् ईश्वरम् प्रकृते परम् अलक्ष्यम् सर्वभूतानाम् अन्तर्बहिरवस्थितम्। केचिदाहुरजम् जातम् पुण्यश्लोकस्य कीर्तये यदा प्रियशान्नवाये मलयस्येव चन्दनम्। केचिदाहुरजम् जातम् पुण्यश्लोकस्य कीर्तये यदो प्रियशान्नवाये मलयस्येव चन्दनम्। अपरे वसुदेवस्य देवक्यां जाचित भगा अजस्तमस्य क्षीमाय बधाय च शरद्विषाम्। भारावतरणायनि भुवो नाभुवो दधौ क्षीरन्त्या भूरिभारेण जातोयात्मा भूयात्थितम्। भवेस्मीं कृष्णमानानाम् अविद्या कामकर्मभिः श्रवणस्मरणार्हाणि करिष्यन्ति केचन। नमस्ते पुरुषार्थम् ईश्वरम् प्रकृते परम् अलक्ष्यम् सर्वभूतानाम् अन्तर्बहिरवस्थितम्। चिन्नन्ति गायन्ति गिनन्तभीक्ष्णशा सिन्दन्ति गायन्ति दिनन्तभीक्ष्णशा स्मरन्ति नन्दन्ति तवेहितं जनः। त एव पश्यन्त चिरेण तावकम् मम प्रवाहो परमं पदाम्बुजम्। त एव पश्यन् सचिरेण तावकम् मम प्रवाहो परमं पदाम्बुजम्। अपार्जनस्थं सपिते हितप्रभो जिहासशीशीनोजीविना जीषां न चान्यां भवत पदाम्बुज। परायणं राजसंयोजितां हसम् अपाद्यनस्तं सपिते हितप्रभो जिहासशीशी सुहृदोनुजीविना येषां न चान्यं भवतोपदाम्बुज। स्वरायणं राजसुजोदितां हसाम् केवलं नामरूपाभ्यं यदुभिः सह पाण्डवा भवतो दर्शनं ज्योरिषि ऋषिकानां निवेशितु नेयं सरिष्यति तत्र यथेदानीं गदाधरम् तत्पादैरङ्किता भाति सलक्षणा विलक्षतम् इमे जनपदास्मिभ्याम् सुपक्वौ सद्भिरुधम् वनाद्री न दुदुन्नन्तम् धीरन्ते तव विस्सितम् अथो विशेष विश्वात्मन् विश्वामुक्ते सकेश मे स्नेहोपासमिमां सिद्धि वीरं पाण्डुषु वृष्णिषु तयि मे नन्ना विषया मथुर्मधुपते सखी रतिमोद्वहता दध्या गङ्गो वौ गामुदन्नति श्रीकृष्ण कृष्ण सखा कृष्णा स्वभावनिध्रु राजन्नवंशदहनानपवर्गवीर्यम् गोविन्दम् गोदिरासुरार्थिया हरावतारा योगेश्वराखिल गुरो भगवन् नमस्ते श्रीकृष्ण कृष्ण सफा विश्वासाभावनिध्रु राजन्नवंश दहना नववर्गवीर्यम् गोविन्दम् गोदिगसुरार्थी रावतारम् योगेश्वरम् अखिलगुणो भगवन् नमस्ते नमस्ते पुरुषम् साद्यम् ईशरं प्रकृते परम् मलक्ष्यां सर्वभूतानाम् अन्तर्बहिरवस्थितम् नमस्ते पुरुषसाद्यम् ईशरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम् कृष्णाय वासुदेवाय देवकीनन्दनाय च कृष्णाय वासुदेवाय देवकीनन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः नमो पङ्कजनाभाय नमः पङ्कजमालिने नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये नमः पङ्कजनाभाय नमः पङ्कजमालिने नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये नमस्ते पुरुषस्याद्यम् ईश्वरम् प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम् नमस्ते पुरुषसाद्यम् ईश्वरम् प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम्